एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानम् प्रतिनिधिसभायाः प्रदेशसभानाम् च सदस्यानाम् निर्वाचनम् लक्ष्यीकृत्य आराष्ट्रम् नैर्वाचनिकम् अभियानम् तीव्रम् जायमानम् वर्तते। एतस्मिन् क्रमे शीर्षनेतारः देशस्य विभिन्नेषु भागेषु प्रत्याशिनश्च मतम् अभियाचितुम् जनतायाः गृहद्वारेषु च प्राप्यमाणाः सन्ति। प्रधानमन्त्री शेरबहादुर देउवा भाषते संविधानस्य रक्षायै वर्तमानं सत्ता गठबन्धनं निर्मितं वर्तते। डडेलधुरा जनपदस्य आलिताल ग्रामपालिकायां गतदिने आयोजितां नैर्वाचनिकीं सभां सम्बोधयन् प्रधानमन्त्री देउवा अवोचत् मनस्तरंगेण वारम्वारं संसद विघटनस्य कारणेन संविधानं रक्षितुं गठबन्धनस्य सर्वकारः निर्मितोऽस्ति। नेपाली कांग्रेस दलस्य सभापतिश्च प्रधानमन्त्री देउवा अकथयत् आलितालवर्तिनः आभ्यन्तर मधेश क्षेत्रस्य विकासाय मार्गस्य तटबन्धस्य च निर्माणार्थं च सर्वकारः कार्यं विदधाति। सभायां नेपाली कांग्रेस दलस्य केन्द्रीय सदस्या डाक्टर आरजू राणा देउवा अब्रवीत् राष्ट्रस्य प्रत्येकं कार्ये महिलानां प्रतिनिधित्वं वर्धमानं वर्तते। गतदिने एव डडेलधुरा जनपदस्य जोगबुडा स्थिते सार्वजनिक मञ्चे आयोजिताम् नैर्वाचनिक सभाम् सम्बोधयन् प्रधानमन्त्री देउवा तर्कयत् राष्ट्रम् द्वन्द्वाद् रक्षितुम् पञ्चदलीयम् सत्ता गठबन्धनम् निर्मितम् वर्तते। असौ जोगबुडा स्थितायाम् महाकाली नद्याम् नेपाल भारतयोः योजकस्य सुदृढ़ सेतोः निर्माणाय भारतेन सह विमृश्यमानम् अस्ति इति अज्ञापयत्। प्रधानमन्त्री देउवा डडेलधुरा जनपदे चिकित्सा शिक्षण महाविद्यालयः प्रारब्धोस्तीति चर्चयन् जोगबुडा स्थाने विशेषज्ञ सेवया सहितं सौविध्ययुक्तं चिकित्सालयं निर्मातुम् आत्मना सक्रियेण भूयते इत्यभासत। प्रमुख निर्वाचन आयुक्तः दिनेश कुमार थपलिया निगदति कस्मिन्नपि मतदान केन्द्रे पुनर्मतदानस्य स्थितेः सहजनस्य निरोधनत्वेन निर्वाचन सम्पादनात्मकेन पूर्वकार्येण सह निर्वाचन आयोगः अग्रे वर्धितो वर्तते। मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य सन्दर्भे झापा जनपदस्य बिर्तामोडस्थाने निर्वाचन आयोगेन नेपाल विधि समाजेन च ह्य आयोजिते निर्वाचन आचार संहितायाः प्रभावकारी क्रियान्वयनम् सम्बद्ध पक्षाणां भूमिका चेति विषयके विमर्शन कार्यक्रमे प्रमुखायुक्तः थपलिया अगदत् विपुलां प्राकृतिक विपत्तिं विहाय अन्यैः कारणैः मतदानं स्थगितं न भविष्यति। असौ अब्रवीत् राजनीतिक दलैः कस्मिन्नपि मतदातरि प्रभाव सर्जनाय दुराशय प्रदर्शिते तादृशानि तत्वानि व्यक्तयो वा नियमसंगतरीत्या दण्ड्यन्ते। प्रमुखायुक्तः थपलिया अभाषत सामाजिक सञ्जालानां माध्यमेन सम्भाव्यानां मिथ्या सूचनायाः दुष्प्रचारस्य घृणास्पदाभिव्यक्तेश्च नियमनाय अपि आयोगः क्रियाशीलो वर्तते। मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानाय निर्वाचनाय हाम्रो नेपाली पार्टी इत्याख्येन दलेन प्रतिबद्धता पत्रम् सार्वजनिक कृतम् वर्तते। ललितपुरे ह्य आयोजिते कार्यक्रमे अनेन दलेन सार्वजनिक कृते प्रतिबद्धता पत्रे वैकल्पिक शक्ति रूपेण आत्मनः संस्थापनम् उद्देश्यम् अस्ति इति उल्लिखितम् वर्तते। यष्ट्याभियानस्य सञ्चालनरतेन एतेन दलेन स्वस्य राजनीतिक दर्शनम् सिद्धान्तश्च नेपालवादो भवति इति उल्लिखितमस्ति। प्रतिबद्धतापत्रे सप्तस्वेव प्रदेशेषु हिमालय पर्वत तराई भागान् संयोज्य सप्तानाम् चक्रपथानाम् निर्माणस्य कार्यक्रम राष्ट्रिय योजनाया रूपेण समाविष्टोऽस्ति। प्रतिबद्धतापत्रे सर्वेषु जनपदेषु शिक्षा स्वास्थ्य कृषि पर्यटनानाम् अवधारणया सह दीर्घकालिक योजनाम् निर्माय अग्रे सञ्चल्यते इत्युल्लिखितम् वर्तते। अन्तर्मोत्पादनम् प्रवर्ध्य आत्मनिर्भरस्य अर्थतन्त्रस्य निर्माणाय लवणा सुवर्णम् यावत् सूच्या प्रक्षेपास्त पर्यन्तम् च नेपाले एव उत्पाद्यन्ते इति च प्रतिबद्धतापत्रे उल्लिखितम् विद्यते। राष्ट्रपतिः विद्यादेवी भण्डारी निगदति स्वास्थ्य सेवायाः सर्वेषु नागरिकेषु सहजतया प्राप्तये राज्येन बलम् देयम्। विश्वस्य सर्वोच्च सगरमाथा शिखराय गमनमार्गे सोलुखुम्बु जनपदस्य खुम्बु पासाङहामु ग्रामपालिकायाः तृतीयवडा क्षेत्रस्य फागदिङ स्थाने ह्य पञ्चदश शय्यानाम् हिमालय शेर्पा चिकित्सालयम् उद्घाटयन्ति राष्ट्रपतिः भण्डारी अवोचत् संविधाने एव स्वास्थ्य सेवायाम् सर्वेषाम् नागरिकाणाम् अधिकारोऽस्ति इति उल्लेखनात् स्वास्थ्य सेवा सर्वेषु नागरिकेषु प्रापणीया। राष्ट्रपति भण्डारी अगदत चिकित्सालय न स्थानीय नागरिक ऐसा अन्तर पर्यटकानाम वैदेशिक पर्यटकानाम चक्रते महान सहयोग प्राप्स्यते। पश्चात्तन समय जलवायु परिवर्तनस्य कारणेन गगन स्पर्शिनः श्वेत हिमालयाः कृष्ण पर्वतेषु परिवर्तमानाः सन्ति त्यत्र चिन्तां प्रकटयन्ति। राष्ट्रपतिः भण्डारी अवदत् अत्र सर्वैः सच्चेष्टैर्भाव्यम्। प्रधानमन्त्री मन्त्री परिषद कार्यालयस्य राज्यमन्त्री उमेश श्रेष्ठ कथयति चितवञ्जन पदस्य कालिका नगरपालिकायां हरितौद्योगिक क्षेत्रं निर्माय उत्पादनं वृत्तिपार्जनं च वर्धापयिष्येते। चितवञ्जन पदस्य कालिका नगरपालिकायां पूर्वेद्यो आयोजिते कार्यक्रमे राज्यमन्त्री श्रेष्ठ एवं अगदत्। प्रधान सेनापति प्रभुराम शर्मा नेपाल सर्वकारात नेपाली सेनाई प्राप्तम निर्वाचन सुरक्षा सम्बद्धम दायित्वम उत्कृष्ट रूपेण सम्पादयितुम निर्दिशति। रूपन्देही जनपदस्य मध्य पश्चिम प्रेतना सैन्य मुख्यालयस्य कैलाली जनपदस्य तयघरी वर्तिनः सुदूर पश्चिम प्रेतना सैन्य मुख्यालयस्य दाङ जनपदस्य रणसिंह दलगणस्य च ह्यो निरीक्षण भ्रमणस्य क्रमे प्रधान सेनापति शर्मा एवं निरदिशत। प्रधान सेनापतिः शर्मा निरीक्षण भ्रमणस्य क्रमे एतेषां सैन्य मुख्यालयानां वर्तमानावस्थां स्थानीय दायित्वं प्रदेशै सह समन्वयस्य आसन्न प्रतिनिधिसभाया प्रदेशसभानां च निर्वाचनस्य एकीकृत सुरक्षा योजनायाः सहैव गणानां वस्तुस्थितेश्च विषयं च अजानात। हुम्ला मुगु बाजुरा जनपदानां योजकः कर्णाली तटीय राजमार्गः मासाद अवरुद्धोऽस्ति। अविरल वृष्टेः कारणेन आश्विनस्य एकोनविंशात् दिवसात् अवरुद्धस्य अस्य राजमार्गस्य असञ्चलनात् स्थानीयाः जनाः समस्यायां वर्तन्ते इति समाचारः।